एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमः अद्य संघीय संसदः संयुक्तोपवेशे प्रस्तोष्यन्ते नयाँ वाणेश्वरवर्तिनी संघीय संसद भवने अद्य दिवात्रिवादने उपविश्यमाने प्रतिनिधिसभायाः राष्ट्रिय सभायाः संयुक्तोपवेशे राष्ट्रपतिना रामचन्द्र पौडेलेन नीति कार्यक्रमः प्रस्तोष्यन्ते संघीय संसदः संयुक्तोपवेशे प्रस्तोष्यमाणानां सर्वकारस्य नीति कार्यक्रमाणां सार्वजनिक सेवा प्रसारण रेडियो नेपालेन प्रत्यक्ष प्रसारणं करिष्यते प्रधानमन्त्री केपी शर्मा ओली निर्भयेन निवेशं विधातुं निवेशकर्तृन् अनुरोणाद्धि विराटनगरे ह्यस्तनात् दिवसात् प्रारब्धस्य एतत् ख्रीष्टवर्षीयस्य कोशी प्रदेश निवेश सम्मेलनस्य उद्घाटनं विदधानः प्रधानमन्त्री ओली मार्ग यातायात पूर्वाधाराणां सर्वे आधाराः निर्मिताः सन्तीत्यतः द्वैविध्यं विनैव निवेशं विधातुं निवेशकर्तृन् अनुरुणत् तदवसरे प्रधानमन्त्री ओली वर्तमान सर्वकारः देशस्य समृद्धेः यात्रां स्वदेशस्य विदेशानां च निवेशान् प्रवेश्य अग्रे वर्धयितुम् इच्छति इति अगदत् कार्यक्रमे कोशी प्रदेशस्य मुख्यमन्त्री हिक्मत कुमार कार्की निवेशस्य प्रचुराभि सम्भावनाभि युतस्य कोशी प्रदेशस्य समृद्धये विकासाय च सम्मेलनम् ऐतिहासिकं भविष्यति इति विश्वासम् अभिव्यनक् द्वि दिवसात्मके निवेश सम्मेलने एकसप्ततिः परियोजनाः प्रस्तुताः सन्ति यत्र च त्रिसप्ततेः खर्वाणाम् एकोनपञ्चाशत् कोटीनां च रूप्यकाणां व्ययः अनुमितो वर्तते सम्मेलने नेपाल भारत चीन रूस अमेरिका दक्षिण कोरिया प्रभृतीनां देशानां निवेशकर्तृणां सहभागिता वर्तते सिन्धुली जनपदस्य सुनकोशी ग्रामपालिकायाः पञ्चम षष्ठ वडा क्षेत्रयोः सञ्चालितायाः नागे गैडा बृहत् पम्पिङ्ग पेयजल योजनातः सहस्रद्वयं पञ्चत्रिंशदधिक पञ्चशतं च गृहपरिवाराः लाभान्विताः वर्तन्ते सप्तत्रिंशत कोटीनां चतुर्नवतेः लक्ष्याणां नवतेः सहस्राणां च रूप्यकाणां व्ययेन निर्मितायाः पेयजल योजनातः प्रत्येकं परिवारेषु शुद्धस्य सुरक्षितस्य च पेयजलस्य प्रापणस्य लक्ष्यं गृहीतमस्ति इति संघीय पेयजल अवकर व्यवस्थापना योजनायाः प्रमुख स्थपतिः हीराकाजी महर्जन असूचयत् आयोजनायाः पूर्वेद्युः उद्घाटनं विदधानः पेयजल मन्त्री प्रदीप यादवः नेपाली नागरिकाणां कृते शुद्ध पेयजलस्य प्राप्तिः अतः परं स्वप्नस्य अपेक्षयापि व्यावहारिकाधिकारो भवति इति उदैरयत् तदवसरे मन्त्री यादवः सर्वकारस्य उच्च प्राथमिकतायां वर्तमानस्य स्वच्छं जलम् स्वस्थं जीवनं चेति अभियानस्य अन्तर्गतम् आराष्ट्रं दुर्गमस्थानानां ग्रामेभ्य नगराणि यावत् पेयजलस्य सेवायाः सर्वसुलभकरणस्य दीर्घकालिकी नीतिरस्ति इति असूचयत् प्रधानमन्त्री केपी शर्मा ओली देशे राजनैतिक परिवर्तनाय सञ्चेतनायै च योगदान प्रदातृन् श्रमिकवर्गान् एकताबद्धा सन्तः समुचितोद्देश्यानां प्राप्तये गतिशीलाः भवितुम् अनुरुणद्धि षट्त्रिंशदधिक शततमस्य अन्तर्राष्ट्रिय श्रमिक दिवसस्य अवसरे जीफन्ट नाम्ना नेपाल श्रमिक महासंघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली रक्तश्वेदौ निपात्य आनीतायाः लोकतान्त्रिक प्रणाल्याः संरक्षणाय प्रतिबद्धतां व्यक्तवान् राष्ट्रिय परीक्षा समित्या माध्यमिक शिक्षायाः द्वादश कक्षायाः परीक्षा अस्यैव वैशाख मासस्य एकविंशात् दिवसात् ज्येष्ठ मासस्य द्वितीयं दिवसं यावत् सञ्चालितेति स्पष्टीकृतं वर्तते परीक्षायाः सञ्चालनस्य सन्दर्भे अनधिकृत रूपेण सामाजिक सञ्जालेषु समितेः संस्थागतं चिह्नं प्रयुज्य कुप्रचारः विधीयमानोऽस्तीत्यत्र आपत्तिं प्रकटय्य भ्रामक सूचनाया अनुधावनं न कर्तुं समित्या सर्वे सम्बद्ध पक्षाः अनुरुद्धाः सन्ति एतत्पूर्वं समित्या द्वादश कक्षायाः परीक्षायाः पूर्वम् अस्यैव वैशाख मासस्य एकादशात् दिवसात् सञ्चालनाय समय तालिका प्रकाशिता आसीत् पुनः नेपाल शिक्षक महासंघस्य आन्दोलनस्य कारणेन अस्यैव वैशाख मासस्य एकविंशात् दिवसात् द्वादश कक्षायाः परीक्षां सञ्चालयितुं निर्णीतम् वर्तते वर्षायाः सकालस्य च देवतेति प्रथितस्य रक्तमत्सेन्द्रनाथस्य रथयात्रा ह्यस्तनात् दिवसात् प्रारब्धा अस्ति। रथयात्रायाः प्रारम्भे गत सोमवासरे वैशाख शुक्ल प्रतिपदि मत्स्येन्द्रनाथ सविधि रथारूढ आसीत्। तस्मिन् दिने रथारूढस्य रक्तमत्स्येन्द्रनाथस्य रथयात्रा ह्यस्तनात् दिवसात् ललितपुर जनपदस्य कुपुण्डल स्थानात् संचालिता। देवः रक्तमत्स्येन्द्रनाथः प्रतिवर्षं वैशाख शुक्ल पक्षस्य प्रतिपद तिथौ रथे आरुह्यते। रथारोहणानन्तरं ललितपुर जनपदस्य विभिन्नेषु स्थानेषु परिक्राम्य प्रायः मासद्वयानन्तरं जावलाखेल स्थानं यावत् प्राप्य इयं यात्रा समाप्यते। रथयात्रेयं काष्ठमण्डपोपत्यकायाः काष्ठमण्डप ललितपुर भक्तपुरञ्चेति त्रयाणामपि जनपदानां सामूहिक सांस्कृतिक पर्वत्वेन स्वीक्रियते। अतः अस्यां यात्रायां ललितपुरनगरस्य जनैः सहैव काष्ठमण्डपस्य भक्तपुरस्य च जनाः सहभागिनः भवन्ति। इयं रथयात्रा देशस्य सर्वापेक्षया दीर्घकालिकं यावत् संचाल्यमाना रथयात्रा अस्ति। ललितपुर महानगरपालिका, ललितपुर जनपद प्रशासन कार्यालय, गुठी संस्थान, ज्यापू समाज प्रभृतिभिः विभिन्नाभिविंशति जातीय संस्थाभिश्च सहकार्यं कृत्वा रथयात्रा संचाल्यमाना अस्ति। प्रत्येकं वर्षे वैशाख मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ समायोज्यमानं श्रीमद् रामानुजाचार्य जयन्ती पर्व अद्य विभिन्नान् कार्यक्रमान् आयोज्य समाद्रियमाणं वर्तते। रामानुजाचार्यः विशिष्टाद्वैत वेदान्तस्य प्रवर्तकः, हिन्दुधर्मान्तर्गतस्य श्रीसम्प्रदायस्य प्रमुख आचार्य मन्यते। तथैव च प्रत्येकं वर्षे वैशाखस्य शुक्लपञ्चम्यां तिथौ समायोज्यमानम् आद्य शंकराचार्य जयन्ती पर्व च अद्य विभिन्नान् कार्यक्रमान् आयोज्य समाद्रियमाणम् वर्तते। वैदिक सनातन धर्मस्य पुनस्थापनायां महत्वपूर्ण योगदान प्रदातुः आद्य शंकराचार्यस्य जन्मजयन्ती विभिन्नेषु मठेषु पीठेषु गुरुकुलेषु च तस्य योगदानस्य चर्चाम् उभयो आचार्ययोः पूजार्चने च विधाय समायोज्यमाना वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा विदेशेषु अर्जितानां शिल्पवित्तादीनां स्वदेशे निवेशनं कर्तुं प्रवासी नेपालिनः अनुरुणद्धि। नेपाली कांग्रेस दलस्य नेपाली जनसम्पर्क समितेः समन्वय विभागेन सानेपा वर्तिनी दल केन्द्रीय कार्यालये ह्य आयोजितायाम् अन्तर्क्रियायां सभापतिः देउवा प्रवासी नेपालीनाम् इच्छायाः अनुसारेण राज्यस्य सर्वेषु निकायेषु वातावरणं निर्माय सक्षम सबल व्यक्तिः सहभागिन्यः कारयितुम् आत्मनः क्रियाशीलता अस्तीति उदैरयत्। स्वास्थ्य सुरक्षण कर्तृभिः स्ववास स्थानम् अभिमुखीकृत्य सौविध्यं ग्रहीतुं शक्यते। मन्त्री परिषदा उपभोक्तॄणां वर्तमानावासं प्रथमबिन्दौ संस्थाप्य स्वास्थ्य सुरक्षण नियमावल्याः संशोधनानन्तरं सौविध्यमिदं ग्रहीतुं शक्यते। एतेन एकस्मिन् चिकित्सालये स्वास्थ्योपचाराभावात् अपरेस्मिन् चिकित्सालये सम्प्रेषणाय स्वास्थ्य सुरक्षण स्थाने संस्तुत्यर्थं गमनम् अपरिहार्यं न भविष्यति। सभामुखः देवराज घिमिरे निगदति पारदर्शिनः उत्तरदायिनः विदेश शासनस्य निर्माणे लेखन व्यवसायिनां महत्वपूर्णं योगदानं वर्तते। नेपाल लेखन विधि व्यवसायी संस्थायाः नवम महाधिवेशनस्य ह्य ललितपुरे उद्घाटनं विदधानः सभामुखः घिमिरे सरलायां भाषायां विधेः व्याख्यां विधाय कार्येषु सहजीकरणस्य व्यवस्थायां विधि व्यवसायिनां महत्वपूर्णा भूमिका भवति इति प्रावोचत्। इति समाचारः।